Sanjay uvach.
Tam tatha krupaya vishtam ashrupurna kulekshanam tam tatha krupaya vishtam ashrupurna kulekshanam vishidantam idam vakyam uvach madhusudanah uvach madhusudanah
shri bhagavan uvach अशोचान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासून गतासूंश्च नानुशोचन्ति पंडिताः नानुशोचन्ति पंडिताः न जायते म्रियते वा कदाचिन् नायं भूत्वा भवितावान भूयः अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वेद अविनाशिनं नित्यं य एनं अजं अव्ययं कथं स पुरुषः पार्थ कं घातयति हन्तिकम् वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो संयाति नवानि देहि
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोषयति मारुतः Thank you. अच्छेद्योऽयम् अदायोऽयम् अक्लेद्यो अशोष एव च नित्यः सर्वगतः स्थाणुरचलोऽयम् सनातनः सनातनः अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते तस्मादेवम् विदित्वैनम् नानुशोचितुम् अर्हसि नानुशोचितुम् अर्हसि
जातस्य हि ध्रुवो मृत्युः
जातस्य हि ध्रुवो मृत्युः
ध्रुवं जन्म मृतस्य च
ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि
न त्वं शोचितुम् अर्हसि
कर्मण्येव अधिकारस्ते मा फलेषु कदाचन कर्मण्येव अधिकारस्ते मा फलेषु कदाचन मा कर्म फल हेतुर्भूः मा ते संगोस्त्व कर्मणि मा ते संगोस्त्व कर्मणि मा ते संगोस्त्व
समो भूत्वा स समत्वं योग उच्यते समत्वं योग उच्यते
कर्मजं बुद्धियुक्ता
पाहि फलं त्यक्त्वा मनीषिणः फलं त्यक्त्वा मनीषिणः
यदा ते मोह कलिलं बुद्धिः व्यतितरिष्यति
यदा ते मोह कलिलं व्यतितरिष्यति
तदागन्तासि निर्वेदम्
श्रोतव्यस्य श्रुतस्य च तस्य च यदा ते मोहकलिलं बुद्धिः व्यतितरिष्यति ध्यायतो विषयान् पुंसः संगस्तेषूपजायते ध्यायतो विषयान् पुंसः संगस्तेषूपजायते संगात् संजायते कामः कामात् क्रोधोभिजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम् इन्द्रियाणां हि चरता यन्मनोनुविधीयते तदस्य हरति प्रज्ञा वायुर्नावमिवाम्भसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता तस्य प्रज्ञा